इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचकः दिव्यानन्द झाः। अथ वार्ताः। प्रधानमन्त्रिणा नरेन्द्रमोदिना ह्यः नवदिल्ल्यां वियतनामदेशीयेन स्वीय समकक्षेण फाम मिन चिन इत्यनेन सह संवादः कृतः। सम्भाषणानन्तरं प्रधानमन्त्रिणा उक्तं यत् भारत वियतनामदेशयोः सम्बन्धः विस्तृतः सुदृढः च जातः, अपि च गत दशवर्षाणां सम्बन्धेभ्यः समग्र सामरिक सहभागित्वस्य आकारः दत्तः अस्ति। संवादानन्तरम् उभौ नेतारौ वियतनाम देशस्य ना ट्रांग नगरे दूरसंचार विश्वविद्यालये सेनातन्त्रांशोद्यानम् उद्घाटितवन्तौ। इयं भारत वियतनाम देशयोः पारस्परिक परियोजना अस्ति। परियोजनायाः कृते भारतेन 5,00,000 मितस्य राशि साहाय्यं प्रदत्तम्। उभौ देशौ सीमा शुल्क क्षमता निर्माण कृष्यनुसन्धान शिक्षा सागरीय परम्परौषधीय वनस्पति विधि क्षेत्रेषु सहयोगाय सहभागिता ज्ञापन पत्राणि हस्ताक्षरैः प्रमाणीकृतवन्तौ। प्रसार भारती वॉयस ऑफ वियतनाम इति च श्रव्यांकन दृश्यांकनयोः सहकारार्थं सहभागिता ज्ञापन पत्रस्य आदान प्रदानम् अपि जातम्। प्रधानमन्त्री श्रीचिन्नः गतवासरे एव राष्ट्रपतिना द्रौपदी मुर्मू इत्यनया उपराष्ट्रपतिना जगदीप धनखडेन च सह मेलनं कृतवान्। भारतस्य मुख्यन्यायाधीशस्य डीवाई चन्द्रचूडस्य नेतृत्वे सर्वोच्चन्यायालये 7 न्यायाधीशानाम् एकेन पीठेन ह्यः बहुमतेन राज्यविधानमण्डलद्वारा अनुसूचितजाति अनुसूचितजनजातिवर्गयोः अन्तर्गतम् उपश्रेण्याः अनुमतिसम्बद्धे निर्णयः श्रावितः। सर्वोच्चन्यायालयेन 4,2000 ईवी चिन्नैया इत्येतस्य निज निर्णये प्रतिपादितमासीत् यत् अनुसूचित जनजातिवर्गस्य आरक्षणस्य उपश्रेण्याः विभाजनं रिक्तेषु सर्वकारीय वृत्तेषु च स्वीकार्यं नास्ति। केरलस्य वायनाड जनपदे दुरापन्ने भूस्खलन प्रकरणे शवानां विलुप्तजनानां च अन्वेषणाभियानं साम्प्रतम् अपि प्रवर्तते। ध्यानास्पदमस्ति यत् तत्र नैके जनाः मृत्युम् उपगताः। साम्प्रतं यावत् 74,200 जनाः मृताः सूच्यन्ते। अधिगतेषु शवेषु 99% शवाः अधुनापि अनभिज्ञाताः एव सन्ति। मृतकानां संख्या इतोऽपि वर्धिष्यते इति सम्भाव्यते। आधिकारिकस्रोतांसि सूचयन्ति यत् अस्यां दुर्घटनायां व्रणिताः नैके जनाः विभिन्नेषु चिकित्सालयेषु उपचाररताः सन्ति। ध्वंसावशेषेषु निरुद्धानां जनानाम् उद्धाराय अधुनापि आपद्मोचनबलानि राज्यसर्वकारस्य विभागाः जनता च पूर्णतोदृशा प्रयासपराः सन्ति। अपरतः बिहारे तडित्पातेन न्यूनातिन्यूनं 10 जनाः मृत्युमुपगताः। हिमाचलप्रदेशेऽपि अतिवृष्टिः भवति। अन्ते क्रीडावार्तासु। पेरिस क्रीडा महाकुम्भे लक्ष्यवेधकः स्वप्निलः कुसाले पुरुषाणां 50 मीटर राइफल 3-पोजिशन शूटिंग इति स्पर्धायां भारताय तृतीयं कांस्य पदकं विजितवान्। पुरुषाणां 50 मीटर राइफल 3-पोजिशन शूटिंग योग्यतार्जन स्पर्धायां कुसाले ही सप्तमे स्थाने स्थित्वा अन्तिमद्वन्द्वे स्थानं प्राप्तवान्। अत्रावसरे प्रधानमन्त्री नरेन्द्रमोदी कांस्य पदक विजयम् अभिलक्ष्य स्वप्निलः इत्यस्मै मंगलवचोभिः वर्धापनानि प्रदत्तवान्। एकस्मिन् सामाजिक संजाले प्रेषिते सन्देशे श्रीमोदी अलिखत् यत् तस्य क्रीडा प्रदर्शनम् उत्कृष्टं विशिष्टं च वर्तते, यतोहि तेन अद्भुतं क्रीडा कौशलं प्रदर्शितम्। श्रीमोदी उक्तवान् यत् सः अस्यां श्रेण्यां पदकस्य विजेता प्रथमः भारतीयः क्रीडकः संवृत्तः अस्ति। अनेन पदकार्जनेन समस्तेऽपि भारते प्रसन्नतायाः लहरी वर्तते। भारत श्रीलंकयोः त्रिस्पर्धात्मिकायाः एकदिवसीय क्रिकेट क्रीडा मालिकायाः प्रथमं द्वन्द्वम् अद्य 2:30 कोलम्बो नगरे भविष्यति। इति वार्ताः।